पारन्तेशाभिनन्दी सपदि च सरिता मन्तरे वर्षयद्यो ग्रीष्मे मित्री चकाराप्यहितमथ गतो वैद्यनाथं स्वभूत्यै छन्दः खण्डार्थवादी जितुकुमतिकुलो दुर्जनेर्ष्याभ्युपेक्षी लघ्वन्नं ब्रह्मयेदत्यपि बहुधनिनामल्पकल्पेन तुष्येत् वृष्ट्यादीनां नियन्तेत्यभिहितचरितः सर्वगीर्वाणरत्नैः गन्धर्वैर्गीयमानोद्युसदसि सकलैः कौतुकान् नम्यमानः दृष्ट्वा संस्तूयमानः सुरतरुकुसुमैरार्य आकीर्यमाणो मध्वो जाज्वल्यतेऽसौ जगति विजयते सत्सभामङ्गलाय दश प्रमतिविक्रमं बहुविधात्मना हेमवत् सुमध्वविजयाभिधं व्यधितभावदीपाह्वयम् प्रमेयनवमालिकां पुनरिमां च दक्षां च तां सतां श्रवणभूषणं व्यदधदेश नारायणः इति श्रीमत्कविकुलतिलक श्रीत्रिविक्रमपण्डिताचार्यसुत श्रीमन्नारायणपण्डिताचार्यविरचिता प्रमेयनवमालिका समाप्ता।